इमन्ना अग्न उपयज्ञमेः पञ्चजा मन्त्रव्रतम् सप्तदन्तम् असौ हव्यमाणुतनः पुरोगाज्योगेम दीर्घन्तम आशयिष्ठाः अदेवाद्देवः प्रचदा गुहाजन् प्रपश्यमानो अमृतत्तमे एमे शिवं यत्सन्तमशिवोजः अभिस्वात्सख्यादरणीन्नाभिमेमे पश्यन्नन्यस्या अतिथिम् वजाजा रतस्य धामभिमिमे पुरोणि शंसामि पित्रे असुराजशेवभयज्ञजाद्यज्ञजम् भागमे एमे बह्वेः समा अकरमन्दरस्मिन्निन्द्रम् वृडानः पितरम् जहामि अग्निः स मावरुडस्तेच्च वन्दे पर्यावर्त्राष्ट्रम् ददवाम् याजन् निर्माजा उत्ये असुरा अभवन्तम् च मावरुणकामजासे रतेन राजन्ननृतम् विभिञ्चन्मव राष्ट्रस्याधिपत्यमेहि इदम् स्मरितमिदा सभामभजम् प्रकाश उर्वा अन्तरिक्षम् हना बभ्रत्रम् निरेः सामहविष्पासन्तम् हविषा जजाम कविः कवित्वादिविरोपमास जत प्रभो देवरुणो निरपसृजत क्षेमम् कृण्वानाजनजो न सिन्धवस्ता अस्य वर्णम् शुचजो भरिभ्रति ता अस्य ज्येष्ठमिन्द्रियम् सजन्तेत ईमाक्षेति स्वधजा मदन्तीः ता ईम् विशानराजानम् व्रणानाभे भत्सुभो अपवृत्रादतिष्ठन् बीभत्सो नाम् सयुजम् हंसमाहुरपान् दिव्यानाम् सख्ये चरन्तम् अनुष्टुभमनुचर्चोर्यमाणमिन्द्रम् निचिक्यः कवजो मनीषा